घनैर्विलोक्य स्थगितार्कमण्डलैः चमूरजोभिर्निचितं नभस्थलम् अयायि हंसैरभिमानसं घन भ्रमेण सानन्दमनर्तिकेकिभिः
घनैरिति घनैः सान्द्रैः अत एव स्थगितार्कमण्डलैः आच्छादितसूर्यबिम्बैः चमूरजोभिः सेनाधूलिभिः निचितं व्याप्तं नभस्थलं व्योमदेशं विलोक्य घनभ्रमेण मेघभ्रान्त्या हंसैः मरालैः मानसं सरः अभिसम्मुखम् अयायि गतम् भावे लुङ् तेषाम् वर्षासु अप्रगल्भत्वादिति भावः अथ च केकिभिः मयूरैः सानन्दम् सहर्षम् अनर्ति नृत्यमकारि अत्रापि भावे लुङ्
सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैरभिश्रिते चकाशिरे स्वर्णमया महाध्वजाः परिस्फुरन्तस्तडिताम् गणा इव
सान्द्रैरिति अम्बरे नभसि अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके इति मेदिनी नवः नूतनः वार्षिक इति यावत् यः अम्बुदः मेघः तस्य अनीकं समूहः तन्निभैः तत्सदृशैः निभस्तु कथितो व्याजे पुंलिङ्गस्सदृशे त्रिषु इति मेदिनी तथा सान्द्रैः सघनैः सान्द्रम् बलेवापि घने मृदौ च इति मेदिनी सुराणाम् अनेकस्य सैन्यस्य रजोभिः रजो रेणौ परागे स्यात् आर्तवे च गुणान्तरे इति मेदिनी अभिश्रिते आवृते सति स्वर्णमयाः हेममयाः महाध्वजाः महान्तः ध्वजाः ध्वजस्याच्चौण्डिके पुमान् न स्त्रियान्तु पताकायाम् खट्वाङ्गे मेढचिह्नयोः इति मेदिनी परिस्फुरन्तः परितः स्फुरन्तः प्रकाशमानाः तडिताम् विद्युताम् तडित्सौदामिनी विद्युत् इत्यमरः गणाः समूहाः इव चकाशिरे शुशुभिरे
विलोक्य धूलीपटलैर्भृशं भृतम् द्यावा पृथिव्योरलमन्तरम् महत् किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतः रजोऽभ्युपैतीति जनैरतर्क्यत
विलोक्येति जनैः लोकैः द्यावापृथिव्योः द्यौश्च पृथिवी च तयोः दिवसश्च पृथिव्याम् इत्यत्र चकारात् यावादेशः महत्विशालम् अन्तरम् अवकाशः धूलीपटलैः रजोनिचयैः भृशम् बहु यथा तथा भृतम् पूर्णम् विलोक्य रजः ऊर्ध्वतः सकाशात् अधः उपैति किं वा अधस्तः सकाशात् ऊर्ध्वतः ऊर्ध्वभागे सार्वविभक्तिकः तसिः अभ्युपैति किमित्यलम् पर्याप्तम् अतर्क्यत तर्कितम् भावे लङ् सर्वतः रजोव्याप्त्या कुतः आगच्छतीति निश्चयाभावादिति भावः
नोर्ध्वं न चाधो न पुरो न पृष्ठतः न पार्श्वतो भूत् खलु चक्षुषोर्गतिः सूच्यग्रभेद्यैः पृतनारजश्च यैः आच्छादिता प्राणिगणस्य सर्वतः
नोर्ध्वमिति सूच्यग्रेण सीवनद्रव्यपुरोभागेन सूची तु सीवनद्रव्ये प्यांगिकाभिनयांतरे इति मेदिनी भेद्यैः भेत्तुं योग्यैः रुहलोः इति ण्यत् अनेन अतिसद्यस्ता द्योतिता तथा भूतैः पृतनायाः सेनायाः पृतना तु स्त्रियां सेनामात्र सेनाविशेषयोः इति मेदिनी रजसां चयैः समूहैः चयः समूहे प्राकार मूलबन्धे समाहतौ इति मेदिनी सर्वतः आच्छादिता आवृता प्राणिगणस्य जन्तुसमूहस्य चक्षुषोः नेत्रयोः लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी इत्यमरः गतिः प्रसरणं ऊर्ध्वं नाभूत् अधश्च नाभूत् पुरः नाभूत् पृष्ठतः नाभूत् पार्श्वतः अपि उभयतः नाभूत् खलु निश्चयेन
दिगन्तदन्त्यावलिदानहारिभिः विमानरन्ध्रप्रतिनादमेदुरैः अनेकवाद्यध्वनितैरनारतैः जगर्जगाढं गुरुभिर्नभस्तलम्
दिगन्तेति दिगन्तेषु या दन्त्यावलिः गजपङ्क्तिः तस्याः दानं मदजलं तस्य हारिभिः शोषकैः घोरध्वनितश्रवणजनितभयवशात् दिगन्तदन्तिनोऽपि शुष्कमदजलाः जाताः इति भावः तथा विमानानां देवस्यन्दनानां रन्ध्रेषु जालेषु यः प्रतिनादः प्रतिध्वनिः तेन मेदुरैः पुष्टैः गुरुभिः दीर्घैः अनारतैः अविद्यमानक्षणिकविरामैः अनेकवाद्यानां मृदङ्गादीनां ध्वनितैः घोषैः कृत्वा नभस्तलं कर्तृ गाढं दृढं जगर्ज प्रतिननादेत्यर्थः अन्योऽपि कस्मिंश्चित् करुणकटुरवकारिणि सति तटस्थोऽपि प्रतिनदति तद्वत् समासोक्तिः अलङ्कारः समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य यत् इति लक्षणात्
भुवं विगाह्य प्रययौ महाचमूः क्वचिन्न मान्ती महतीं दिवं खलु सुसङ्कुलायामपि तत्र निर्भरात् किं कान्दिशीकत्वमवापनाकुला
भुवमिति महाचमूः महती सेना भुवं विगाह्य व्याप्य क्वचिदपि भूमिस्थले न मान्ती असमाविशन्ती सती महतीं विशालां दिवं स्वर्गं प्रययौ प्राप खलु निश्चयेन अथ च निर्भरात् अधिकात्मभाराद्धेतोः तत्रापि दिव्यपि सुतरां सङ्कुलायां व्याप्तायां सत्याम् आकुला व्याकुला सती कांदिशीकत्वं भयद्रुतत्वं कांदिशीको भयद्रुतः इत्यमरः किं नावापा अपितु अवापैवेत्यर्थः परस्परपेषणभिया व्याकुलत्वात् दुद्रुवुः इत्यर्थः अत्र द्रवणं द्रवणेच्छामात्रपरं द्रवणं कर्तुमैच्छदिति तात्पर्यार्थः अन्यथा व्याप्तेः प्रतिबंधकत्वेन द्रवणासंभवात् द्रवणोक्तेः अफलत्वापत्तिः
उद्दामदानद्विपवृन्दब्रंहितैः नितान्तमुत्तुङ्गतुरङ्गहेषितैः चलद्घनस्यन्दननेमि निःस्वनैः अभून्निरुज्ज्वासमिवाकुलं जगत्
उद्दामेति उद्दामदानाः उत्कटमदाः ये द्विपाः गजाः तेषां वृन्दस्य समूहस्य बृंहितैः शब्दैः तथा उत्तुङ्गाः उन्नताः ये तुरङ्गाः अश्वाः तेषां हेषितैः हेषाभिः तथा नितान्तम् अत्यन्तं चलन्तः घना इव स्यन्दनाः रथाः तेषां याः नेमयः चक्रधाराः तासां निःस्वनैश्च नितराम् आकुलं व्याकुलं जगत् निरुच्छ्वासमिव निरुद्धश्वासमिव अभूत् आकुलत्वसाधारणधर्मेण निरुद्धश्वासत्वं उत्प्रेक्षते इति उत्प्रेक्षालङ्कारः
महागजानां गुरुभिस्तु गर्जितैः विलोलघण्टारणितैरणोल्बणैः वीरप्रणादैः प्रमदप्रमेदुरैः वाचालताम् आदधिरेतराम् दिशः
महागजानामिति महागजानाम् सम्बन्धिभिः गुरुभिः दीर्घैः गर्जितैः रणोल्बणैः विलोलाः याः घण्टाः तासाम् रणितैश्च प्रमदेन उन्मादेन निमित्तेन प्रमेदुरैः प्रकर्षेण पुष्टैः वीरप्रणादैः वीराणाम् शब्दैश्च दिशः काष्ठाः कर्त्र्यः वाचालताम् मुखरताम् आदधिरेतराम् अतिशयेन धृतवत्यः तरपि किमेत्तिङ् इत्याम्
दन्तीन्द्रदानद्रववारिवीचिभिः सद्योऽपि नद्यो बहुधा पुपूरिरे धारारजोभिस्तुरगैः क्षतैर्भृताः याः पङ्कतामेत्य रथैस्थलीकृताः
दन्तीन्द्रेति दन्तीन्द्राणाम् गजेन्द्राणाम् ये दानद्रवाः मदस्रुतयः तेषाम् वारीणि जलानि तेषाम् वीचिभिः तरङ्गैः कर्तृभिः नद्यः वाहिन्यः अपि सद्यः बहुधा पुपूरिरे पूरिताः कर्मणि लिट् ग्रीष्मसन्तापेन शुष्का अपि नद्यः जलपूर्णाः आसन्नित्यर्थः अथ याः नद्यः तुरगैः क्षतैः क्षुण्णैः रजोभिः भृताः पूर्णाः अत एव पङ्कताम् कर्दमताम् एत्य स्थिताः ताः रथैः कर्तृभिः धाराः चक्रधाराः भ्रामयित्वा स्थलीकृताः
निम्नाः प्रदेशास्थलतामुपागमन् निम्नत्वमुच्चैरपि सर्वतश्च ते तुरङ्गमाणाम् व्रजताम् खुरैः क्षताः रथैर्गजेन्द्रैः परितः समीकृताः
निम्ना इति निम्नाः नीचाः प्रदेशाः भूमयः स्थलताम् समानभूमित्वम् उपागमन् प्रापुः सर्वतः उच्चैरपि उन्नता अपि ते प्रदेशाः निम्नत्वम् उपागमन् निम्नम् उच्चैः अभवत् अन्यप्रदेशोत्थापितधूलिपूरितत्वात् उच्चैः निम्नम् अभवत् आत्मधूलीनाम् अन्यत्र पतितत्वादिति भावः अथ च ते प्रदेशाः व्रजताम् गच्छताम् तुरङ्गमाणाम् खुरैः क्षताः चुक्षुदिरे अत एव रथैः गजेन्द्रैश्च परितः निम्नोन्नतेषु समीकृताः समाः चक्रिरे इत्यर्थः
नभो दिगन्त प्रतिघोष भीषणैः महामहीभृत्तटदारणोल्बणैः पयोधि निर्धूननकेलिभिर्जगत् बभूव भेरी ध्वनितैः समाकुलम्
नभ इति नभसि व्योम्नि दिगन्तेषु च यः प्रतिघोषः प्रतिध्वनिः तेन भीषणैः भयानकैः महान्ति यानि महीभृताम् पर्वतानाम् तटानि भृगवः तेषाम् दारणे भेदने उल्बणैः उद्भटैः समर्थैरिति यावत् तथा पयोधेः समुद्रस्य निर्धूनने कम्पने केलिः क्रीडा येषाम् पयोधिमपि कम्पयद्भिरित्यर्थः भेरीध्वनितैः वदनैकवाद्यमानवाद्यविशेषरवैः निमित्तैः जगत् समाकुलम् व्याकुलम् बभूव
इतस्ततो वातविधूतचञ्चलैः नीरन्ध्रिताशागमनैर्ध्वजांशुकैः लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैः अमज्जिधूलीजलधौ नभोगते
इत इति इतस्ततः वातविधूतानि पवनकम्पितानि अत एव चञ्चलानि च तैः तथा नीरन्ध्रितम् निरवकाशीकृतम् आशासु दिक्षु गमनम् यैः आत्मव्याप्त्या रुद्धपथिकपथैरित्यर्थः क्वणत् रणत् काञ्चनकिङ्किणीनाम् सौवर्णनूपुराणाम् कुलम् जालम् येषाम् प्रान्तभागेषु शोभार्थम् प्रतिबद्धनूपुरजालैरित्यर्थः लक्षैः लक्षसङ्ख्यैः लक्षम् शरव्ये सङ्ख्यायाम् इति मेदिनि ध्वजांशुकैः ध्वजपटैः अंशुकम् शुक्लवस्त्रे स्यात् वस्त्रमात्रोत्तरीययोः इति मेदिनि नभसि गते प्रसृते धूलिजलधौ रजोम्बुधौ अमज्जि मज्जितम् भावे लुङ् सर्वाणि ध्वजांशुकानि धूलिभिः अलक्षितानि बभूवुः इत्यर्थः
घण्टारवै रौद्रतरैर्निरन्तरम् विसृत्वरैर्गर्जरवैसुभैरवैः मत्तद्विपानां प्रथयां बभूविरे न वाहिनीनां पटहस्य निस्वनाः।
घण्टारवैरिति मत्तद्विपानां सम्बन्धिभिः निरन्तरं विसृत्वरैः प्रसृमरैः सुतरां भैरवैः भीषणैः भैरवः पुंसि शम्बरे भीषणेऽपि च इति मेदिनी गर्जरवैः गर्जनारूपघोषैः रौद्रतरैः अत्युग्रैः रौद्रं तु उग्रम् अमीत्रिषु इत्यमरः। घण्टारवैश्च वाहिनीनां सेनानां सम्बन्धिनः पतहस्य आनकाख्यवाद्यविशेषस्य निःस्वनाः शब्दाः न प्रथयाम्बभूविरे न प्रकटीचक्रिरे।
करालवाचालमुखाश्च मूस्वनैः ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः तिरो बभूवे गहनैर्दिनेश्वरः रजोऽन्धकारैः परितः कुतोऽप्यसौ।
करालेति चमूस्वनैः सेनाघोषैः करालानि वाचालानि च मुखानि प्रारम्भाः। मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि इति मेदिनि तथा ध्वस्तं रजोव्याप्तम् अम्बरं यासाम् तथा रजस्वलाः रजोयुक्ताः दिशः वीक्ष्य परितः गहनैः सघनैः रजोऽन्धकारैः कर्तृभिः असौ दिनेश्वरः सूर्यः कुतोऽपि कुत्रापि तिरोबभूवे तिरोगमितः। अन्तर्हित इत्यर्थः भूङ् गतौ इत्यतो लिट् भूप्राप्तौ इत्यतो वा वीक्ष्येवेति गम्योत्प्रेक्ष। अथ द्वितीयपक्षे रजस्वलाः आर्तववतीः अत एव करालां भीषणां वाचं वाणीं अलान्ति अगृह्णन्ति मुखानि यासाम्। ततः विशेषणसमासः मौनव्रतधारिणी इत्यर्थः। तथा ध्वस्ताम्बराः स्रस्तशाटिकाः नग्नाः इत्यर्थः। एवं भूता चमूः योषितः चमूः सेनाविशेषे च सेनामात्रे च योषिति इति मेदिनि। वीक्ष्य रजस्यार्तवविषये अन्धकारः अन्धवत्कारः कृतिः। क्रिया इति यावत् भावे घञ् आर्तवम् अपत्रपद्भिरित्यर्थः। रजस्वलादर्शननिषेधात् गहनैः गहनमनोभिः सद्भिरित्यर्थः। दिनेश्वरः कश्चित् पुरुषः कुत्रापि तिरोबभूवे कश्चित् असत्पुरुषः रजस्वलां पश्यन्नपि सद्भिः करुणया पटादिभिः तिरोधीयते तद्वदित्यर्थः।
आक्रान्तपूर्वारभसेन सैनिकैः दिगङ्गना व्योमरजोऽभिदूषिता भेरीरवाणां प्रतिशब्दितैर्घनैः जगर्जगाढं घनमत्सरादिव।
आक्रान्तपूर्वेति सैनिकैः सेनाजनैः रभसेन वेगेन आक्रान्तपूर्वा पूर्वमाक्रान्ता दिगङ्गना दिग्रूपा नायिका रजसा धूल्या आर्तवेन च। रजोरेणौ परागे स्यादार्तवे च गुणान्तरे इति मेदिनी अभिदूषिता कृता वीक्ष्येति। अतः घनमत्सरादिव गाढद्वेषादिव व्योम कर्तृ भेरीरवाणां घनैः प्रतिशब्दितैः कृत्वा गाढं जगर्ज। अन्योपि आत्मपत्नीम् अन्यसंगमेन रजोयुक्तां वीक्ष्य गर्जति।
गुरुसमीर समीरितभूधराः इव गजा गगनं विजगाहिरे। गुरुतरा इव वारिधरारथाः भुवमितीह विवर्त इवाभवत्।
गुरुसमीरेति गुरुणा महता समीरेण वातेन समीरिताः उपरिक्षिप्ताः भूधराः पर्वताः इव इति उत्प्रेक्षा। गजाः गगनं विजगाहिरे अवगाहितवन्त इत्यर्थः। गुरुतरा अपि महान्तो वारिधराः मेघा इवेत्युत्प्रेक्षा। रथाः भुवं विजगाहिरे इह संगरः इत्येवं विवर्त इव व्यत्यय इव अभवत्। गगनपृथिव्यवगाहने स्यन्दन नागयोः भूधरसंभवात् उत्प्रेक्षितं च तत्सादृश्यदर्शनात् द्रुतविलम्बितं वृत्तम्।
बलमदसुरलोकानल्पकल्पान्तकाले निरवधय इवाम्भोराशयो घोरघोषाः गुरुतरपरिमज्जद्भूभृतो देवसेनाः ववृधुरपि सुपूर्णा व्योमभूम्यन्तराले।
बलवदिति गुरुतराः अत एव परिमज्जन्तः भूभृतः राजानः पर्वताश्च यासु येषु च व्योमभूम्योः द्यावापृथिव्योः अन्तराले मध्ये सुतरां पूर्णा अपि इत्युभयत्रापि समानम्। घोरघोषाः भयानकरवाः देवसेनाः ववृधुः तत्र उत्प्रेक्ष्यते। बलवताम् असुरलोकानाम् अनल्पः महान् यः कल्पान्तकालः प्रलयकालः तत्र निरवधयः अपाराः अम्भोराशय इव समुद्राः इव। अत्र उपमैवास्त्विति चेत् न, तत्र अभिन्नलिङ्गम् उभयोरिति नियमात्। मालिनी छन्दः लक्षणम् पूर्वमुक्तम् इति श्रीपर्वणीकरोपनामक श्रीलक्ष्मणभट्टात्मज सतीगर्भसम्भव श्रीसीतारामकविविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये देवसेनाप्रयाणम् नाम चतुर्दशः सर्गः।